हरिओम आकाशवाणी संप्रति वार्ता श्रूयता प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। लोकसभा निर्वाचनस्य प्रथमचरणाय नामांकनस्य अद्य अन्तिमतिथिः वर्तते। द्वितीयचरणस्य निर्वाचनाय अधिसूचना श्वः निर्गता भविष्यति। भारतेन दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निगडनम् अधिकृत्य अमेरिकायाः विदेशमन्त्रालयस्य प्रवक्त्रा प्रदत्तं वक्तव्यं विरुध्य स्वकीयः विरोधः प्रकटितः। केन्द्रीय मन्त्री भारतीय जनता पार्टीति दलस्य नेता अनुराग सिंह ठाकुरः प्रोदीरितवान् यत् नरेन्द्र मोदी प्रशासनेन अनुच्छेदौ 70-35 अ इत्येतौ दूरीकृत्वा जम्मू कश्मीरे विकासमार्गः प्रशस्तं कृतम्। मार्चमासे सर्वतः अधिकं वैदेशिक निवेश प्रवाहम् आकर्षितं कृत्वा भारतेन अन्यानि एशियापण संस्थानानि सुदूरं परित्यक्तानि। अपि च आईपीएल इति क्रिकेट मालिकायां अद्य सनराइजर्स हैदराबाद दलं मुंबई इंडियंस दलं सम्मुखी करिष्यति। अथ वार्ताः विशदीकृत्य। लोकसभा निर्वाचनस्य प्रथमचरणाय नामांकनस्य अद्य अन्तिमतिथिः वर्तते। यद्यपि बिहारे नामांकन पत्राणि श्वः यावत् प्रस्तौतुं शक्ष्यन्ते। अस्माकं संवाददाता प्रोक्तवान् यत् प्रथमे चरणे 17 राज्याणां 4 केन्द्रशासित प्रदेशानां च 2-1% लोकसभा निर्वाचन आसनेषु निर्वाचनं भविष्यति। अस्मिन् चरणे तमिलनाडु राज्यस्य 39, राजस्थानस्य 12, उत्तरप्रदेशस्य 8, मध्यप्रदेशस्य 8, उत्तराखण्ड असम महाराष्ट्राणां च 5, बिहारस्य 4, पश्चिमबंगालस्य 3, मणिपुर अरुणाचलप्रदेश मेघालयानां 2, छत्तीसगढ़ मिजोरम नागालैंड सिक्किम त्रिपुरा अंडमान निकोबार लक्षद्वीप पुदुचेरी जम्मू कश्मीराणां एकैकं च निर्वाचन आसनानि निर्वाचनाय विचितानि सन्ति। नामांकन पत्राणां समीक्षा मार्च मासस्य 28 दिनांके भविष्यति। सहैव 30 दिनांकात् पूर्वं नामांकन प्रतिग्रहणं कर्तुं शक्यते। बिहारे नामांकन पत्राणां समीक्षा मार्च मासस्य 30 दिनांके भविष्यति। अपि च अप्रैल मासस्य 2 दिनांकं यावत् नामांकनस्य प्रतिग्रहणं अनुमतम् अस्ति। प्रथमचरणाय मतदानं अप्रैल मासस्य 19 दिनांके भविष्यति। द्वितीयचरणस्य निर्वाचनाय अधिसूचना श्वः निर्गता भविष्यति। अस्मिन् चरणे 12 राज्याणां केन्द्रशासित प्रदेशानां च 91 लोकसभा निर्वाचन आसनेषु निर्वाचनद्वन्द्वं भविष्यति। द्वितीयचरणे केरलस्य 20, कर्णाटकस्य 14, उत्तरप्रदेश महाराष्ट्रयोः क्रमशः 8-8, मध्यप्रदेशस्य 7, असम बिहारयोः क्रमशः 5-5, पश्चिमबंगाल छत्तीसगढ़योः 3, मणिपुर त्रिपुरा जम्मू कश्मीराणां क्रमशः 1-1 चेत्यादिषु निर्वाचनासनेषु निर्वाचनं भविष्यति। प्रत्याशिनः अप्रैल मासस्य 4 दिनांकं यावत् नामांकनं विधातुं शक्नुवन्ति। मतदानं च 26 दिनांके भविष्यति। जम्मू कश्मीरं विहाय अन्येषु राज्येषु नामांकन पत्राणां समीक्षा अप्रैल मासस्य 5 दिनांकं यावत् करिष्यति। जम्मू कश्मीरे नामांकन पत्राणां समीक्षा अप्रैल मासस्य 6 दिनांके भविष्यति। भारतेन दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निगडनम् अधिकृत्य अमेरिकायाः विदेशमन्त्रालयस्य प्रवक्त्रा प्रदत्तं वक्तव्यं विरुध्य स्वकीयः विरोधः प्रकटितः। भारतीय विदेशमन्त्रालयेन प्रोक्तं यत् प्रत्येकं देशस्य स्वकीया न्यायिक प्रक्रिया भवति। मन्त्रालयः प्रोक्तवान् यत् एकः देशः अपेक्षते यत् तेन अपरदेशानां सम्प्रभुता आन्तरिक विषयाः च सम्माननीयाः। विशिष्टरूपेण सादृश्य लोकतान्त्रिक व्यवस्थाभूतानां देशानां इदं कर्तव्यम् इतोऽपि अधिकम् आवश्यकं भवति। एतदतिरिच्य विरुद्धाचरणं विधाय विसंगत उदाहरणानि प्रस्तौष्यन्ति। विदेशमन्त्रालयः प्रोक्तवान् यत् देशस्य न्यायिक प्रक्रिया स्वतन्त्र न्यायपालिकायाम् आधारिता भवति उत वा निष्पक्ष समयबद्ध परिणामान् प्रति वचनबद्धता भवति। मन्त्रालयः प्रोक्तवान् यत् एतादृशेषु विषयेषु प्रासंगिकरहित वक्तव्यानि अनुचितानि सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय मन्त्री भारतीय जनता पार्टीति दलस्य नेता अनुराग सिंह ठाकुरः प्रोदीरितवान् यत् नरेन्द्र मोदी प्रशासनेन अनुच्छेदौ 70-335 अ इत्येतौ दूरीकृत्वा जम्मू कश्मीर राज्ये विकास मार्गः प्रशस्तं कृतम्। श्री ठाकुरः अद्य जम्मू नगरस्य झज्जर कोटली इत्यत्र वार्ताहरान् सम्बोधयन् आसीत्। मार्चमासे सर्वतः अधिकं वैदेशिक निवेश प्रवाहम् आकर्षितं कृत्वा भारतेन अन्यानि एशियापण संस्थानानि सुदूरं परित्यक्तानि। विदेश संस्थागत निवेशकैः दिसम्बर मासात् अनन्तरं भारतीय इक्विटी इत्यस्मिन् 63.3 बिलियन डॉलर मितस्य निवेशः कृतः, अपरत्र गृहसंस्थानानि न्यूनातिन्यूनं 67.4 लाख करोड़ रूपयकाणां निवेशं कृतवन्तः। महाराष्ट्रे भारतीय जनता पार्टीति दलस्य वरिष्ठनेता नितिन गडकरी अद्य जनपद कार्यालये स्वीय नामांकनं विहितवान्। सः नागपुर लोकसभा निर्वाचन आसनात् निर्वाचन द्वन्द्वं विधास्यति। अस्मिन् अवसरे मुख्यमंत्री एकनाथ शिंदेः, उपमुख्यमंत्री देवेन्द्र फडणवीसः, महाराष्ट्र भाजपाध्यक्षः चंद्रशेखर बावनकुले च उपस्थिताः आसन्। अस्मिन् अवधौ शिवसेना शिंदे पक्षस्य नेता राजू पर्वे अपि रामटेक लोकसभा निर्वाचन आसनात् नामांकनं विहितवान्। श्री पर्वे कांग्रेस दलस्य प्रत्याशिनं रश्मि बर्वे इत्येतं विरुध्य निर्वाचन द्वन्द्वं विधास्यति। छत्तीसगढ़ राज्ये आदिवासी बस्तर संभागे अद्य सुरक्षाबलैः सहजाते संघर्षे विद्रोही महिलाद्वयं समेत्य षड् माओवादिनः मारिताः। अस्माकं वार्ताहरः प्रख्यापितवान् यत् घटनास्थलात् षड् माओवादीनां मृतशरीराणि, बृहत्तमायां संख्यायां च शस्त्राणि, विस्फोटक पदार्थानि च मिलितानि। अन्वेषणाभियानं सम्प्रति प्रचलत्येव। पत्र सूचना कार्यालयः लोकसभा निर्वाचनस्य प्रसारकेभ्यः वार्ताकर्मिभ्यः एकस्य विशिष्ट अन्तर्जालपटलस्य pib.gov.in/elect2024/index.aspx इत्यस्य प्रारम्भं कृतवान्। एतस्मिन् पटले डिजिटल फ्लिप बुक सादृशाः विशिष्टाः विद्यन्ते, यस्मिन् अनेकेषां प्रकारकाणां विश्लेषणानां दत्तांशानां च संबंधिताः लेखाः समाविष्टाः सन्ति। वार्ताप्रसारककर्मिणः निर्वाचन सम्बद्ध लेखलेखनाय एतस्मिन् पटले समुपलब्धानां सूचनानां प्रयोगं कर्तुं शक्यन्ते। वायुसेनाप्रमुखः मार्शल वी आर चौधरी इत्येषः उक्तवान् यत् बालाकोट सादृशेन अभियानेन इदम् अभिज्ञायते यत् राजनीतिक संकल्पशक्तेः बले वान्तरिक्षशक्तिं शत्रुणां क्षेत्रे प्रभाविरीत्या प्रयोगं कर्तुं शक्यते। श्री चौधरी अद्य नवदिल्ल्यां भावि संघर्षेषु वान्तरिक्षशक्तौ एयरोस्पेस पावर इत्यस्मिन् 15वीं जम्बो मजुमदार अन्ताराष्ट्रिय संगोष्ठ्यां स्वीयोद्बोधनं वक्तव्यमिदं तु कथितवान्। वायुसेनाप्रमुखेन कथितं यत् अन्तरिक्षस्य सैन्यकरणं सशस्त्रीकरणं च एकः अपरिहार्यथार्थः जातः। आईपीएल इति क्रिकेट मालिकायाम् अद्य हैदराबादस्य राजीव गांधी इंटरनेशनल स्टेडियम इति क्रीडांगणे सनराइजर्स हैदराबाद दलं मुंबई इंडियंस दलं सम्मुखीकरिष्यति। इयं प्रतिस्पर्धा भारतीय समयानुसारं सायं 7:30 क्रीडिष्यते। इति वार्ताः।